इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य बिहार राज्यस्य भागलपुर क्षेत्रे प्रधानमन्त्री किसान सम्मान निधि योजनायाः नवदशमं भागं विमोचयिष्यति। इयं योजना भूस्वामिनां कृषकाणां कृते त्रिषु समान भागेषु प्रतिवर्षं 6,000 रूप्यकाणि प्रददाति। समग्रे हि देशे 31,700 यावच्च कृषि विज्ञान केन्द्रेष्वपि नैके कार्यक्रमाः आयोजयिष्यन्ते, यस्मिन् भूयोपि 2.5 कोटि संख्यकाः कृषकाः प्रत्यक्षतया उतवा आभासीय माध्यमेन सम्मिलिताः भविष्यन्ति। कार्यक्रमम् एनं संसूचयन् केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः सूचितवान् यत् अयं दिवसः किसान सम्मान समारोहत्वेन मानयिष्यति, येन हि केन्द्र राज्य प्रशासनयोः योजनानां विषये जनाः जागरूकाः भवितुं शक्नुवन्ति। विदेश मन्त्री डॉ एस जयशंकरः प्रोक्तवान् यत् काशी नगरी भारत वर्षस्य सांस्कृतिक केन्द्रत्वेन उद्भूतास्ति। असौ अग्रे अवोचत् यत् काशी तमिल संगमम् इति काशी तमिलनाडु इत्यनयोः मध्ये अति प्राचीन विशेष सम्बन्धानाम् उत्सवो विद्यते। ह्यः वाराणस्याः काशी हिन्दू विश्वविद्यालये परम्परायां प्रौद्योगिक्याम् अखिले हि विश्वे च काशी तमिल संगमम् इत्येतस्य तृतीय संस्करणस्य शैक्षणिक सत्रं सम्बोधयन् डॉ जयशंकरः विज्ञापितवान् यत् भारतम् विविधतानां देशो विद्यते, अपि च विभिन्न संस्कृतीनां सत्सु अपि एकं भारतं श्रेष्ठं भारतमिति भावनां प्रदर्शयति। तीर्थराजे प्रयागराजे प्रचल्यमाने पुण्ये महाकुम्भे त्रिवेणी संगमे साम्प्रतं यावत् 6,60,000 कोटि संख्यकाः श्रद्धालवः पुण्यावगाहनं समाचरितवन्तः। सकलविश्वात् 1,00,000 श्रद्धालवः प्रतिदिनम् अस्मिन् महाकुम्भे सम्मिलितुं समागच्छन्ति इति अस्माकं वार्ताहरेण सूचितं यत् ह्यः प्रायशः 33,00,000 कोटिसंख्यकाः श्रद्धालवः पवित्रे संगमे पुण्यावगाहनं कृतवन्तः। प्रख्यात जगतः विशिष्टजनाः अपि अत्रावसरे सम्मिलिताः अभवन्, येषु उत्तराखण्डस्य राज्यपालः सेवानिवृत्तः लेफ्टिनेंट जनरल गुरमीत सिंहः, ओडिशायाः मुख्यमंत्री मोहन चरण मांझी, लोकसभा सांसदः भाजपेति दलीयः नेतारः संबित पात्रा इत्यसौ, गायकः कैलाश खेरः, चलचित्र निर्माता बोनी कपूरः, शंकराचार्यः भारती तीर्थ महास्वामीजी वर्यः च पवित्रस्नानं समाचरितवन्तः। दिल्ल्याः 8म्याः विधानसभायाः प्रथमं सत्रम् अद्य प्रभृति प्रारप्स्यति। सत्रस्य प्रथमदिवसे सदनस्य नूतन निर्वाचित विधायकाः शपथविधाम् अंगीकरिष्यन्ति। तदनन्तरं विधानसभाध्यक्षस्य निर्वाचनम् अद्यैव भविष्यति। द्वितीय दिवसे उपराज्यपालः विनयकुमार सक्सेना इत्येषः सदनं सम्बोधयिष्यति। विगत प्रशासनस्य कार्यचर्चा सम्बद्धम् कैग इति प्रतिवेदनम् अपि प्रस्तोष्यति। भारतीय चलचित्रोद्योगस्य 11,100 वर्ष सम्पूर्तिः बांग्लादेशे ढाकानगरे भारतीय संस्कृति केन्द्रे भारतीय चलचित्र जगतः यात्रा इत्यनेन शीर्षकेण प्रदर्शनाभिः सह उद्घाटयिष्यति। बांग्लादेशे भारतस्य उच्चायुक्तः प्रणय वर्मा ढाकानगरे भारतीयोच्चायोगस्य इन्दिरागांधी सांस्कृतिक केन्द्रद्वारा आयोजितायाः प्रदर्शन्याः उद्घाटनं विहितवान्। आईसीसी इति पुरुषाणां चैंपियंस ट्रॉफी क्रिकेट प्रतिस्पर्धायां ह्यः रात्रौ दुबय्याम् अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे भारतेन स्वं प्रचीर प्रतिद्वन्दिनं पाकिस्तानदलं 6 स्तोभैः पराजितम्। इति वार्ताः।